स्वधर्मे निधनं श्रेयः परधर्मो भयावह पितृधर्मो हतो हन्ति धर्मो रक्षति रक्षितः पुत्रस्पर्शात् सुखतरः।